पृतोस्तु नप्ता पृथु धर्म कर्मटः प्राचीन वर्षिर्युवतौ शतद्युतौ प्रचेतसो नाम सुचेतसः सुतान् अजीजन त्वत्करुणाङ्कुरानिव पितुः शुश्रूषा निरतस्य शासनाद् भवत्तपस्या निरता दशापि ते पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवक दर्शनादृतः प्रकाशमासाद्य पुरः प्रचेतसा उपाधिषद्भक्त तमस्तवस्तवम् स्तवम् जपन्तस्तममी जलान्तरे भवन्तमाशे विशतायुतौ समाः भवत्सुखास्वादरसादमीष्मियान् बभूव कालो ध्रुववन्न शीघ्रता तपोभिरेषामतिमात्रवर्दिभिः स यज्ञहिंसा निरतोऽपि पावितः पितापि तेषाम् गृहयात नारद प्रदर्शितात्म भवतात्मताम् ययौ कृपाबलेनैव पुरः प्रचेतसा प्रकाशमागा पतगेन्द्रवाहनः विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चि तद्युतिः प्रचेतसाम् तावदया च तामपि त्वमेव कारुण्यबलाद्वरानदाः भवति चिन्तापि शिवाय देहिनाम् भवत्वसौ रुद्रनुतिश्च कामदा अवाप्य कान्ताम् तनयाम् महीरुहाम् तया रमद्वम् दशलक्षवत्सरीम् सुतोऽस्तु दक्षो ननु दक्षिणाश्च माम् प्रयास्यतेति न्यगदो मुदैवतान् ततश्च ते भूतलरो दिनस्तरुन् कृदादहन्तो द्रुहिणेन वारिताः द्रुमैश्च दत्ताम् तनयामवाप्यताम् त्वदुक्तकालम् सुखिनोभिरेमिरे अवाप्य दक्षम् च सुतम् कृताद्वराः प्रचेतसो नारद लब्धया धिया अवापुरानन्दपदम् तथा विदस्त्वमीश वातालयनाथ पाहि मा